वागर्थाविवसम्प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॐ येनाक्षरसमाम्यायम् अतिगम्यं महेश्वरात् कृष्णं व्याकरणं प्रोक्तं पाणिनये नमः ॐ सहनावपतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
उत्तमं भगिनी धन्यवादः अस्तु अद्य किं कुर्मः अभ्यासपुस्तके
भगिनी
वदतु
सोरि I have one doubt, Bhagini. Yesterday we were trying with Shailja Bhagini, Sudha Bhagini, we were doing some practice. Framing one sentence about the Tritiya Vibhakti, I said one vakyam, Aham Shlokena Shantim. So I'll get Shanti by doing. चाण्टिङ्ग् श्लोका
न अत्र भगिनी क्रियापदं किम् अहं श्लोके
भगिनी क्रियापदं क्वश्चन् मार्क् है भगिनी सो मुझे मिलता है के लिए लभामि प्राप्नोमि
प्राप्नोमि
अनुभवामि अनुभवामि So I said Prapnomi and Sudha Bhagini
Prapnomi api samichinam Labhami Labhami iti Labh iti Atmane padi dhatu Bhagini Ekavaram pashyatu Bhashe Bhashate Bhashete Bhashante Bhashase Bhashete Bhashadve भाषे भाषावहे भाषामहे लभे अहं लभे तदपि साधु हा वक्तुम् इच्छति वा इति समीचीनमेव किन्तु मम मनसि अनुभवामि एकम् उचितं पदमस्ति अत्र
भगिनी लभे Is that लाभ होता है that word meaning लभते means लभते means is it लाभ होता है ना
लाभ किंतु लाभ in Hindi can have many different connotations अत्र तो that is also possible लाभ is to basically to जो मिलता है जिसको हमको
so you are saying
figuratively
Most suitable word will be Anubhavami.
No, not most suitable, but in my head that is a feeling I feel. Anubhavami, Shantim Anubhavami. I mean, I experience peace. You get peace. That is also very, it's also accurate. You can say aham... अहं श्लोकेन शान्तिं लभे साधु एव भगिनि साधु लभ इन् मै हेड् सम्हौ ऐ हेव् अ फीलिङ्ग् देट् लभ नो इन् भगवद्गीता आल्सो एक्चुलि भगवान् यूसेस् इट् इन् दिस् वे आल्सो ऐ थिङ्क् इट् इस् साधु भगिनि अहं अहं श्लोकेन
शान्तिं लभे भगवद्गीता सेस् लाभा लाभौ जया जयौ
जयौ हा सो इन् दट् ही इस् मीनिङ्ग् वट् यु गेट् एण्ड् वट् यु डोण्ट् गेट् what you have victory over and what you lose, have equanimity towards both. Labha labhau jaya jayau. Labha, labh alabh, jaya ajaya. I mean, that Bhagwan is saying what you, because in our lives we think of somehow, you know, the people from India coming to this country are coming because they think they'll get something, no? That India didn't give, right? The first thing that they come for is something they'll get. Maybe wealth, maybe name, maybe experience, maybe something. Get. Then many people are now returning to India, unsatisfied with what they got. They got all that. Actually, they got name, probably they got fame also, probably they got everything. But still, maybe they are still looking for something else. So this getting is a kind of, we think of it in very different ways as human beings, I think.
So it's like getting something in worldly thing, worldly thing is to use, worldly. Like get.
It could be. But Bhagwan uses love as a, in both ways actually. In this labha, labha, he means everything. He means worldly wise as well as otherwise. Say you are practicing asana and pranayam for 3 hours and you get no shanti. And there's nothing worldly in that. Still, he'll say, what will Bhagwan say? You shouldn't treat that experience as, oh, I shouldn't have done that. Treat with equanimity, Bhagwan is saying. Labha labhau jaya jayau tato yuddhaya yujyasva. What is it? Nanushoshutum arhasi.
So benefiting for something physical kind of nature. Or way abstract. Of living or
no, physical or abstract or shanti has nothing material, even that,
yes.
So Bhagwan here, he can hear in this particular shloka, Bhagwan is meaning all meanings that can come in your head towards which you can feel positive or negative. He says don't feel those positive and negative feelings. That's what he's trying to say in that shloka, towards what you get and what you don't get. What you get and what you don't get is up to you. No, most people actually think of life as only physical getting. Success is what? Big house, 5 cars, you know, lots of stuff. No, no. Bhagwan doesn't mean it that way. Bhagwan means that or abstract. Your goal of life, are you getting that? Are you achieving your 4 purusharthas? Anyway, he says, either physical or non-physical, to treat it with equanimity so that you keep your emotions steady and level. That's what he's trying to mean. But labha can go, labha is atmanepadi. Lab is a atmanepadi dhatu. So atmanepadi asti chet, it should definitely include the abstract. And therefore I am thinking in my head there are many, many shlokas where labhate has been used by Bhagwan for like shanti and for like peace and for all that. So it's a good vakya.
It gives a lot of atmanepadi meanings also too, right, Bhagini?
Ah.
Because it is to get, to obtain, to find. We find peace when we say shlokas. So it could be apt, right?
Uttamam. Api anubhavami is also right. So they are all correct, Bhagini. All those are. Prapnomi is also okay.
But we didn't get that prapnomi in Arthadhyayi, Bhagini. That's why we...
Because pra is there. It won't have all the... Upasarga is there. Aapnomi will be there, Bhagini. Just look up aap. Aap. Then you will find aapnomi, then prapnomi, like that. Good question. I'm glad you were trying. So you were together practicing and you found this very good. Uttamam. Astu. Adya
kim. It worked out very well, Bhagini, actually. We had fun learning together.
It is like that.
Yeah.
That is true. It is very much like that. And I also do that with many people. I get together and we study. It's actually much, not only much more fun, you retain more in your head.
More, yeah.
Trying
a
little
true.
Bit Bhagini together.
Yeah.
Yeah. You remember, because then you remember, oh, she laughed about it. Oh, she made a joke. Oh, we talked about this. These things, you it helps you remember, that's all.
Yes, Bhagini, we are getting everyone's experiences. Also sharing the experiences, writings and all thoughts.
Thoughts, everything is very useful that way. Uttamam.
Bhagini, I have, Shailasha Bhagini, I have posted that small kid chanting that.
Yeah, it's so cute, huh?
So cute, right?
She seems to be a German girl, it seems, Bhagini, but
yeah,
how fluently she has
girl. And in India, one ashram, she is studying this, in one ashram.
Oh, she's German girl.
She's learning Sanskritam there in
one
Indian ashram.
In India,
she's in the Amma ashram. This is Amma ashram.
Amruteshwari. Maybe, that's why she said
Amruteshwari. Yeah.
Yeah.
Amruteshwari.
Amruteshwari. Her name said Amma. Yeah. Bhagini, and the meaning of the sloka is very nice, na Bhagini?
Yes, Dhyaya, Dhyaya. I also sing that sloka, actually. Beautiful sloka.
Oh. Mm. So what she is saying, she is finally asking us to chant that during the times of what masam, Bhagini? That four chaturmash kar din mein padne ke liye bol rahi hai na Bhagini?
No, dhyaya mo dhavalav gunthanavatim tejo mayim is a shloka. It just says that these are all adjectives of Amma, actually. The one who is completely in peace, the one who, this is how the whole shloka is. And so all of these eems are visheshana for Amma.
That's fine, Bhagini. We'll discuss tomorrow. Everyone will be there tomorrow in the class, and everyone can get the chance to listen to that. Yes, yes.
It's beautiful. We can do it. Astu. Astu. Adya kim kurmaha. Any particular thing you desire to practice? I was thinking a few things. One is to simply learn to say the Vibhakti Rupani, which I have done for so many years. And
we are doing all the same thing.
I'm supposed to ask you that, Bhagini, what we are supposed to practice and things like that.
So, for example, you can take turns even today, right now. You start with Ajanta Pumlinga Prakaranam. Akaranta Pullinga Rama Shabdaha. Rama Ramau Ramaha, He Rama, He Ramau, He Ramaha, Ramam Ramau Raman, Ramena Ramabhyam Ramaihi, Ramaya Ramabhyam Ramebhya, Ramat Ramabhyam Ramebhya, Ramasya Ramayoho Ramana, Rame Ramayoho Rameshu. So, like this you say, again, each of you say, three of you say. Then you do the Striling Rupam, then you do Napumsakalingram. Do it right now. Start. Take turns and say. So again and again it becomes a song in your head. Then you know all the Rupas. Vadatu.
I'll try Bhagini. Akaranta Pumlinga Rama Shabda. Ramah Ramau Rama Ramaha Ramam Ramau Raman Ramena Ramabhyam Ramau Ramau Ramaya Ramabhyam Ramaihe Ramaya Ramabhyam Ramebhyaha Rama Tramabhyam Ramebhyaha रामस्य रामौः रामयोः रामाणां रमे रामयोः रमेषु हे राम हे रामो हे रामः
रामौ हे रामौ
हे रामौ हे रामः
अकारान्त पुंलिङ्ग राम शब्दः रामः रामौ रामाः रामं रामौ रामान् रामेण रामाभ्यां रामैः रामाय रामाभ्यां रामेभ्यः रामात् रामाभ्यां रामेभ्यः रामस्य रामयोः रामाणां रामे रामयोः रामेषु हे राम हे रामौ हे रामाः
I'm doing it bhagini Deepshika bhagini are you doing it or shall I do bhagini
You may do Bhagini first, then I'll do after you.
Yeah. Ajanta pullinga prakaranam akarantaha pullingaha rama shabdaha Ramaha ramau ramaha He rama rahe ramau he ramaha Ramam ramau raman Ramena ramabhyam ramaihi Ramaya ramabhyam रामेभ्यः रामात् रामाभ्यां रामेभ्यः रामस्य रमयोः रमाणां रमे रामे रमयोः रमेषु रामेषु
षष्ठी रामस्य रामयोः रामाणां
रामस्य रामयोः रामाणां रामे रमयोः रामेषु That's it for
me. Okay. Ajanta Pullinga Prakaranam Akaranta Pullinga Rama Shabdha Ramaha Ramau Ramaha Ramam Ramau Raman Ramen Ramabhyam Ramaihi Ramaya Ramabhyam Ramebhyaha Ramat Ramabhyam Ramebhyaha रामस्य रामयोः रामाणां रामे रामयोः रामेषु हे राम हे रामौ हे रामाः
उत्तमम् उत्तमम् अधुना किं कुर्मः शिवरूपा भगिनी किमपि अन्यपदस्य पदं स्वीकृत्य समानेव रूपाणि वदतु भगिनी इत्युक्ते मुकुन्द करोतु
आकारान्तपुंलिङ्गमुकुन्दशब्दः मुकुन्दौ मुकुन्दाः मुकुन्धौ मुकुन्दान् मुकुन्देन मुकुन्दाभ्यां मुकुन्दैः मुकुन्दाय मुकुन्दाभ्यां मुकुन्देभ्यः मुकुन्धात् मुकुन्दाभ्यां मुकुन्देभ्यः मुकुन्दस्य मुकुन्दयोः मुकुन्दानां मुकुन्दे मुकुन्दयोः मुकुन्देषु हे मुकुन्द हे मुकुन्दौ हे मुकुन्दाः
अकारान्तपुंलिङ्गदेवशब्दः देवः देवौ देवाः देवं देवौ देवान् देवेन देवाभ्यां देवैः देवस्य देवाभ्यां देवेभ्यः देवाद् देवाभ्यां देवेभ्यः देवस्य देवयोः देवानां देवे देवयोः देवेषु हे देव हे देवौ हे देवाः
अकारान्तमण्डपः पुल्लिङ्गशब्दः मण्डपः मण्डपौ मण्डपाः हे मण्डपं हे मण्डपौ हे मण्डपाः मण्डपं मण्डपौ मण्डपान् मण्डपेन मण्डपाभ्यां मण्डपैः मण्डपाय मण्डपाभ्यां मण्डपेभ्यः मण्डपात् मण्डपाभ्यां मण्डपेभ्यः मण्डपस्य मण्डपयोः मण्डपनां मण्डपे मण्डपयोः मण्डपेषु
Shashti Bhagini, Shailaja Bhagini, much better. Shashti, you have to be careful. The Dirgha A must be there. Otherwise, in your spelling, you will forget when you write. Mandapanam.
Mandapasya mandapayoho mandapanam.
Ah, uttamam, uttamam.
The lines are not clearly visible, Bhagini. I have to switch on the light.
Ah, you should have light. Always be in light.
Yeah, yeah.
Which one should I read now? Where? Is it on some page number or I have to do it on my own?
Na, Bhagini, kimapi padam, pumlinga padam, akaranta swikate, dasharatha, karo tu Bhagini.
Achha, dasharatha, okay. Ajanta pullinga prakaranam, akaranta pullinga dasharatha shabdha. Dasharatha, dasharathau, dasharathaha, dasharatha. थम दशरथौ दशरथान
दशरथे दशरथ दशरथ
दशरथ ओके
हिंदी भाषायां तु दश अत्र तु दशरथ दशरथ
दशरथ ओके दशरथ दशरथौ दशरथाः दशरथम दशरथौ दशरथान दशरथेण दशरथाभ्यां दशरथैः दशरथायाय दशरथाभ्यां दशरथेभ्यः दशरथात् दशरथभ्यां दशरथाभ्यां दशरथेभ्यः दशरथस्य दशरथयोः दशरथानां दशरथे दशरथयोः दशरथेषु हे दशरथ हे दशरथौ हे दशरथाः
भगिनी उत्तमं किन्तु अत्र ऋणत्वं न भवति दशरथेन दशरथेन नास्ति दशरथेन न तालु न आयति किमर्थम् एकं सूत्रमस्ति रसाभ्यां नो नः यदि शकार मूर्धन्य शकार अस्ति चेत् रेफ अस्ति चेत् मूर्धन्य ऋकार अस्ति चेत् अग्रे साक्षात् नकार णकार भवति इति वदति सूत्रं रसाभ्यां नो न एकं सूत्रमस्ति भगिनि पाणिनेः सूत्रमस्ति सूत्रं किं वदति रकार रेफ वा शकार मूर्धन्य शकार वा अपि च किं मूर्ध ऋकार अस्ति चेत् साक्षात् साक्षात् मीन्स् इमीडियेट्लि आफ्टर् दट् आफ्टर् अ र ष और अ रुर् if there is a na, if there is kshamyatam, if there is a na, it will become na. Sandhi rule. That is one sutra. Tadanantaram ekam anya sutra asti. Atkupvang vyavayepi. Iti sutram kim vadati. Yadi madhye. Means between the repha, murdhanya shakara or ru and the na, if in between either a or any swara is there, or any ka varga is there, or any pa varga is there, or na is there, then it will not cause a blockage in the rashabhyam no naha sutra. The sutra will still work. But atra ratha tha kasya varga varna asti. Varga kim? Kaha varga ayat thakara? Bhagini, Shripshika bhagini?
Tha. Tha.
Kim? Varga kim?
Tha varga.
Varga ityukte kim? Ka varga ityukte kim?
Tha. 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 Tha is karkasha varga.
हा कर्कशतु अस्ति किन्तु क वर्ग
दन्त्यः वर्ग
हा दन्त्यत वर्ग दन्त्यत
वर्ग हा दन्त्यत वर्ग हा आम भगिनी
अट्कुप वांग व्यवायेपि अट्कुप वांग नुम व्यवायेपि इति सूत्रं किं वदति किमपि स्वर कुवर्ग कुप कुप्वांग कुपु कुवर्ग पु पुवर्ग इत्युक्ते कख गघङ वर्ग अपि पफ बभ म इति किमपि अस्ति चेत् बाधा नास्ति बट् वी हियर् वी हेव् त वर्ग त वर्ग इफ् त इस् इन् बिट्वीन् the cause, then the effect will be blocked. So here the na will not change to na. You don't have to know these sutras yet. I'm simply, if you'll ask me why the rule is there, how do I know when to apply, that's why I'm telling you. So here ratha, rathena. What is in between ra and na, Bhagini? What are all the varnas between ra and na atra? Rathena, dasha rathena, tritiya rupam. Vadatu bhagini, Dipshika, bhagini.
Dasha
rathena. Ha, vadatu. Madhya kim ayati atra? Rephasi antaram kim? Akara.
Dasha.
दशरथेन तृतीयरूपं किं कथं जानीमः दशरथेन वा दशरथेण वा इति प्रश्नः अवगतम् यु अण्डर्स्टाण्ड् द क्वश्चन् क्वश्चन् इत्युक्ते rathena this is called ṇatvam the coming of ṇa ṇatvam
ha
like rāmena
rām when the first alpha jo pehla akshar ra hoga to wo rāmena aayega
नहीं पहले और दूसरे से मतलब नहीं है र के बाद मूर्धन्य श के बाद स्वर रु के बाद अगर न है साक्षात न है. साक्षात मीन्स इमीडिएटली, बीच में कोई भी अक्षर नहीं है, स्वर नहीं है, कुछ नहीं है, तो वो जो न है वो ऑटोमेटिकली न बन जाता है. लेकिन अगर बीच में कुछ एक स्वर होते हैं, कुछ एक वर्ण होते हैं, उनसे क्या असर पड़ता है, तो सूत्र बोलता है अगर वो बीच वाले स्वर स्वर हैं, बीच वाले वर्ण स्वर हैं, या फिर क वर्ग के हैं या फिर प वर्ग के हैं या न है, तो कोई बाधा नहीं पड़ेगी. मतलब आपका जो प्रक्रिया है वो होगी. कौन सी प्रक्रिया? न से ण बनना. ये है सूत्र का आदेश. अभी बीच में क्या है? रामेण में बताइए आप भगिनी, रामेण में रामे न क्यों नहीं है? उसके र और न के बीच में क्या क्या आता है बताइए आप?
र और न के बीच में आ और म
और
ए. रामेण तो आ म ए.
हाँ, तो दो तो स्वर हो गए,
दो स्वर हो गए. हाँ,
बीच में एक हुआ मकार. मकार कौन से वर्ग का है?
मकार है अपना ये जो प वर्ग का है, ओष्ठयः.
ओष्ठयः, हाँ, प वर्ग. कुप अट कुपं नुम व्यवाये पी. मतलब कोई भी स्वर क वर्ग और प वर्ग अगर बीच में है तो आपको बाधा नहीं पड़ेगी. ये सूत्र बोलता है. अभी रामेण में प वर्ग है और स्वर है तो कोई बाधा नहीं पड़ेगी, इसीलिए वो न ण बनेगा. किंतु दशरथे न वा दशरथे न वा, हाउ डू यू नो नाउ? यूज द सेम सूत्र. व्हाट हैपेंस?
दशरथ
नहीं, नहीं समझ आया. तृतीया, तृतीय रूपम किम? दशरथे न दशरथे न
ण इज तृतीय न मूर्धन्याः.
नहीं, वही प्रश्न पड़ रहा है. उसमें एक स्टार बना है ना शब्द मंजरी में, रामेण.
स्टार बना है.
स्टार बना है. तो मैं वही आपको समझा रही हूँ कि क्यों वो न ण बना, और हमको कैसे पता चलेगा कब में ण लगाना है किस में न लगाना है, ये मैं आपको समझा रही हूँ. तो वहां पे र और न के बीच में दो स्वर आए और एक मकार आया. म हुआ प वर्ग का, या तो क वर्ग का या प वर्ग का. बीच में पढ़ने से नकार णकार होता है, ये सूत्र बोलता है. लेकिन अगर और कोई भी और कोई आ गया, नकार भी आ गया, तो बाधा नहीं पड़ता. अत्कुप वांग नुम व्यवा ये पी, ये है सूत्र. लेकिन अभी तो हम लोग का त वर्ग आया ना बीच में, दशरथे.
हाँ, दशरथे त वर्ग आया,
तो बाधा पड़ेगी. मतलब वो जो ना है वो ना नहीं बनेगा, वो ना ही रहेगा, ये मैं आपको समझा रही हूँ.
अच्छा, ओके. हाँ, क और प वर्ग के आएंगे तो ण बनेगा,
तो बाधा नहीं होगी. हाँ, बाधा नहीं होगी. तो बाधा नहीं होगा तो बाधा नहीं होगी. न होने से भी बाधा नहीं होती. न होने से भी बाधा
नहीं. वर्ग तो न तो त वर्ग में आता है तो भी बाधा नहीं होगी.
लेकिन न केवल न को हटा दिया, इसलिए उन्होंने सूत्र में बोल दिया है पाणिनि भगवान ने. ये सूत्र पढ़ने से आपको समझ आता है. उसको सूत्र पढ़ने का एक बहुत लंबा प्रक्रिया होती है, उसको समझने में हम लोग को कुछ एक महीने लग सकते हैं, लेकिन मैं आपको उसका अर्थ समझा रही हूँ। व्याकरण वर्ग में आपको ये सब समझने में मिलेगा एक, हाँ, लेकिन अभी हम लोग को नॉर्मल विदाउट नोइंग सूत्र कैसे पता चलेगा, तो इसीलिए उन्होंने दिया है तृतीय एक वचन और षष्ठी एक वचन। द लेटर न विल बी जनरली चेंज टू ण व्हेन इट कम्स आफ्टर र, श, र, जनरली लिख दिया उन लोग ने। फिर उसके नीचे देखिए सूत्र दिया है रसाभ्याम नोण समान पदे, एक ही पद के अंदर होने से। तो इसीलिए दशरथ हम लोग ने चुना, तो तृतीय में वो मन में याद कर लीजिए कि दशरथे न दशरथा नाम, नाम नहीं होगा, ये आप मन में याद कर लीजिए बस, नो मोर।
आम भजन,
हाँ हाँ, अस्तु।
सो ऑल भगिनी, सो व्हाट एवर वी सेड लाइक देव मुकुंद एवरीथिंग विल बी द ना, राइट, देवेन मुकुंदेन।
हाँ हाँ, और आप लोग ने ना ही बोला, हाँ, आप लोग ने ना ही बोला, नहीं तो मैं रोकती आपको। क्यों ना बोला? क्योंकि जितने संधि के जो जितने संधि के नियम है, ये संधि के नियम भाषा प्रचलित थी उस समय। पाणिनि भगवान अफगानिस्तान से लेके पूरा पूरे भारत को लेके और नीचे बर्मा साउथ ईस्ट एशिया तक पूरा उन्होंने भ्रमण किया और वहां पे जितने सारे देशों के व्याकरण के जो पंडित थे उनसे मिलकर और जहां जहां गए वहां लोगों की भाषा सुनकर उन्होंने देखा कि ये प्रचलित है, फिर उन्होंने नियम बनाए, व्याकरण नियम उन्होंने पाणिनि भगवान ने सब कुछ देखते हुए बनाए। उन्होंने नया नया नियम नहीं डाला कि कोई नहीं करता मैं डालता हूं, ना, यही बोलते थे क्यों ये सब नियम है, लोगों ने बिना नियम के होने से भी क्यों ऐसा बोला, क्योंकि स्वाभाविक हमारा मुख ऐसे ही काम करेगा, वो बहुत स्वाभाविक है उसका न बनना और न बनना। इसीलिए आप लोगों ने वहां पे न लिखा है फिर भी आप लोगों के मुंह से न निकला देवे न, क्योंकि देवे न बोलने में ज्यादा कष्ट है, देवे न स्वाभाविक है। और दशरथे न, देखो आप बोल के देखिए, दशरथे न बहुत स्वाभाविक है, दशरथे न लिटिल बिट हार्डर टू से, रामे न इज हार्डर टू से देन रामे न, करके देखिए आप मुंह में करके देखिए इसका, सो अनुभव करके देखिए तो आप अंदर से पता चलने लगेगा, ओ ये ज्यादा ठीक लग रहा है, शायद सूत्र तो मैं जानती नहीं, शायद यही ठीक होगा, अपने मन से आपको एक विश्वास आने लगेगा, आप करके देखिए।
तो इस प्रकार में हर विल बिकम हरेण।
हाँ उत्तम भगिनी, किमर्थम रकार नकार मध्ये केवल स्वर अस्ति, और आप बोल के देखिए हरेण हरेण, न इज सो मच मोर इजियर टू, वहां पे जीभ वहीं पे टंगी है, आपने र बोला है जीभ वहीं टंगी है, चुपचाप नीचे आ जाएगी ण निकाले के, क्यों जीभ इधर से उधर आगे पीछे ज्यादा काम करेगी, नहीं करेगी, स्वाभाविक है वो। अगर हमको अपनी नाक पकड़नी है तो सामने से हाथ लगाया नाक पकड़ा, अभी पीछे गोल घूम के जागे नाक पकड़ने का स्वाभाविक तो नहीं है ना ये, कि सिर के पीछे से हाथ जाके नाक पकड़ रहा है, इट्स नॉट स्वाभाविक। नाक पकड़ने को बोला तो सीधा सामने से हाथ गया नाक पकड़ लिया, इजीएस्ट। मैं बोलूंगी यहां से दरवाजे तक जाओ तो आप पूरा घर का चक्कर लगा के थोड़ी जाएंगे दरवाजे तक, सीधा जाएंगे ना। सो सेम रूल्स पीपल हैव फॉलोड, स्वाभाविक है वो, सोचना नहीं पड़ता उसके लिए, और सारे नियम जो है संधि के स्वाभाविक ही हैं।
भाविनी मुझे एक डाउट है, इट अप्लाई दिस रूल अप्लाइज टू ओनली पुंलिंग और इट अप्लाइज टू
ना 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 समान पदे इत्युक्ते किम, कोई भी पद, कोई भी पद धातु में नहीं लगेगा, प्रातिपदिकम में नहीं लगेगा, प्रातिपदिकम पद नहीं है, धातु पद नहीं है, पद माने जो तैयार हो चुका है। क्योंकि जब पाणिनि भगवान ने पूरा भ्रमण किया तो उनको थोड़ी कोई धातु सुनने को मिलेगा, उनको थोड़ी कोई प्रातिपदिकम, कोई बैठ के बातें हो रही है, मम्मी और बेटी बातें कर रही है और प्रातिपदिकम निकल रहा मुंह से, नो, उनके पास तो केवल तैयार पद निकलेंगे, है ना। तो ऑल यू विल हियर इन एनी लैंग्वेज इज द तैयार पद, इसीलिए ये पद के लिए ही लिखा गया है। फिर वो सब लेते हुए पाणिनि भगवान ने धातु बनाए, प्रातिपदिकम बनाए, जिसमें हमको सरलता से समझ आने लगे, हम लोग की समझ के लिए बनाए उन्होंने। धातु कोई बोलता नहीं है, प्रचलित नहीं था ये सब। प्रातिपदिकम का कोई कॉन्सेप्ट है कि लोगों को ये सब पता था, प्रातिपदिकम से निकलते हैं ये सब, कुछ नहीं पता था लोगों को। लोगों को केवल क्या आता है, भाषा का प्रयोग करना बस। हम लोग को देखिए, हिंदी हम बचपन से बोले हैं तो हिंदी की व्याकरण तो स्कूल में बाद में अगर सीखने को मिल गई तो मिल गई, नहीं तो बोलना तो सबको आता है। अस्तु नाउ अधुना किम कुर्मः, पापा जी आप बोलिए।
भगिनी, सो फॉर मंडपः आल्सो इट इज लाइक दिस नो, मंडपेना एंड फॉर षष्ठी मंडपानाम।
भगिनी भगिनी एक निमिष, मंडप मंडप इसमें तो आपका कोई कॉज ही नहीं है, ना रे ना रेप है, ना शकार है, ना रू है, सो द क्वेश्चन डजंट अराइज, देर इज नो कॉज टू कॉज, देर इज नो क्या बोलते हैं, देर इज कॉज एंड इफेक्ट ना, यहाँ पे तो कॉज ही नहीं है, निमित्तम नास्ति अत्र, अंडरस्टैंड। शैलजा भगिनी,
फॉर षष्ठी आल्सो लाइक दैट ओनली नो, मंडपानाम भगिनी बहुवचनम।
हाँ भगिनी, लिसन टू, मैं क्या बोल रही हूँ, मंडप इसमें निमित्तम नहीं है, इत्युक्ते किम कॉज नहीं है। व्हाट इज द कॉज, प्रेजेंस ऑफ रेप, प्रेजेंस ऑफ श मूर्धन्य श एंड प्रेजेंस ऑफ,
यस भगिनी,
ये तीनों ही मंडप में नहीं है, है ना।
यस भगिनी,
हाँ तो वो क्वेश्चन ही नहीं आएगा। जीव अपने आप न में जाएगी, क्वेश्चन ही नहीं उठता है उसमें।
Sometimes unknowingly also we say correct and unknowingly we say wrong also, Vagini. So I just want to clarify it like.
No, but you should understand the cause.
Yes, Vagini.
Here there is no need to even discuss this sutra because there is no cause.
Yes.
Bhagini. Only if ra is there, sha is there,
sha, ra,
and rr is there, then this cause comes.
That rule applies. Yes, Bhagini.
Anywhere before a na, any of these three exist, then it is worth considering. Nahi to it, the question does not arise. Avagata?
Hmm.
I would like to ask Papaji. Papaji, ye Ram ya Dev ka jo aap bolte the, jaise aapko sikhaya gaya hai, waise aap bolke ek bar sunaiye. Pure prakriya iske roop.
रामाय रामाभ्याम रामैः, रामात् रामाभ्याम रामैः, रामस्य रामयो रामानाम, रामे राम हे राम, हे रामेषु हे राम, हे राम रामेषु,
हे रामयो रामेषु,
हे राम हे रामौ हे रामा। चौथा
चौथा पंचमी बहुवचन रामेभ्य। लेकिन आप देखिए आफ्टर हाउ मेनी 60 decades देखो मेमोरी देखो मेबी इवन 70 decades
83
बीच में कभी पढ़ा नहीं दिस इज पुराना निकल रहा है देखिए आप सी हाउ स्ट्रॉन्ग स्मृति कैन बी हाउ पावरफुल इट इज 99% ही गॉट करेक्ट और अभी 2 मिनट सोचने को बोलूंगी तो तुरंत आ जाएंगे वो सब बिना सोचे एकदम ऑन द स्पॉट बुलाया तो इतना अच्छा आया इज अ मसल दैट एक्चुअली हम लोग के भारतीय संस्कृति में स्मृति पे बहुत ध्यान देते हैं और आप देखिए हम लोग ने योग सूत्र पढ़े हैं अभी क्लास में पढ़ रहे हैं एक बार भी भगवान ने जिसको हम लोग आजकल बहुत मानते हैं इंटेलिजेंट अभी किसी को भी पूछो हाउ इज दिस पर्सन ओ इज वेरी इंटेलिजेंट इंटेलिजेंस पे ही सारा ध्यान रहता है अभी तक इतने सूत्र हमने पढ़ लिए पाणिनि पतंजलि भगवान ने इतने सारे गुण गिन दिए कि यू शुड हैव दिस एंड दिस एंड दिस आज तक उन्होंने इंटेलिजेंस अभी तक नहीं बोला एनीबडी नोटिस दैट लेकिन स्मृति के बारे में कितनी बार बात हो चुकी है वेरी वेरी इंपॉर्टेंट इंटेलिजेंस इज लेटर कम्स लेटर इंटेलिजेंस विल कम लेटर पहले आप सामग्री तो लाइए First, bring all the ingredients only, then with intelligence you can cook a food. You don't have the ingredients, what good is your intelligence? So the samagri you need, Shraddha, Virya, Smriti, Samadhi, Prajna, these are the samagri you need. Astu. Aduna kim kurmaha, Strilinga Rupani, Teke, Rama, somebody different start now. Just take turns. You should take turns and start. Last time who started? Shivrupa. Deepshika Bhagini, you start.
Aam Bhagini.
Reverse.
Ajanta Strilingam Prakaranam. Akaranta Strilinga Rama Shabdah. Rama Rame Ramaha. रमाम रमे रमाह रमया रमाभ्याम रमाभिः रमायै रमाभ्याम रमाभ्यः रमायाः रमाभ्याम रमाभ्यः रमायाः रमयोः रमाणां रमायां रमयोः रमासु हे रमे हे रमे हे रमाः
अत्र किं किम् अभवत् सी रमा दीर्घ आकारान्त पदम् अस्ति चेत् अपि रमयोः देखो इधर रमयोः ह्रस्वं भवति छोटा हो जाता है वो रमा द्विवचने रमे नॉट रामे रमे नॉट रमाये मकार दीर्घ से वो ह्रस्व हो जाता है आ नोट करिए इसको दिमाग में नहीं तो आप लिखने जाएंगे फिर मन में भ्रम आएगा ओ ये ऐसा होता है वैसा होता है कैसे करते हैं इवन व्हेन संबोधन रूपण हे रमे सीता हे सीते गीता हे गीते अनीता हे अनीते कोई भी आप उसमें सुनिए राम सीता को कैसे बुलाएंगे हे सीते हाँ उत्तमम भगिनी हाँ अन्य करो तो कि मैं अन्य हाँ करो तो
अजंत स्त्रीलिंग प्रकरणम आकारांतः स्त्रीलिंग सीता शब्दः सीता सीते सीताः सीतां सीते सीताः सीतयो सीताभ्यां सीताभिः सीतायै सीताभ्यां सीताभ्यः सीतायाः सीताभ्यां सीताभ्यः सीतायाः सीतयोः सीतानां सीतायां सीतयोः सीतासु
षष्ठी बहुवचन पुनः वदतु
सीतायाः सीतयोः सीतानां सीतायां
नाम वा
सीतानां
उत्तमम्
हे सीतायां सीतयोः सीतासु हे सीते सीताः
उत्तमम् अग्रिमं कोऽपि करोतु
अजन्तस्त्रीलिङ्गप्रकरणम् आकारान्तस्त्रीलिङ्गलताशब्दः लता लते लताः लतां लते लताः लतया लताभ्यां लताभिः लतायै लताभ्यां लताभ्यः लतायाः लताभ्यां लताभ्यः लतायाः लतयोः लतानां लतानां लतयोः लतासु
सप्तमी एकवचन पुनः वदतु
लतायां
रमा रमे रमाः रमां रमे रमाः रमया रमाभ्यां रमाभिः रमायै रमाभ्यां रमाभ्यः रमायाः रमाभ्यां रमाभ्यः रमायाः रमयो रमाणां रमाणां रमायां रमयोः रमासु हे रमे हे रमे हे रमाः इसे थोड़ा सा गा के बोलने से जैसे भी आपको धुन लगे वो थोड़ा सा रिदम आने से थोड़ा जल्दी याद होता है
अजन्त स्त्रीलिंग प्रकरणम् आकारान्त राधा स्त्रीलिंग शब्दः राधा राधे राधाः हे राधे हे राधाः राधां राधे राधाः राधाय राधाभ्यां राधाभिः राधायै राधाभ्यां राधायः राधाय राधाभ्यां राधाभ्यः राधायः राधयोः राधानां राधायां राधयोः राधासु
पञ्चमी षष्ठी एकवचनरूपं पुनः वदतु
आं भगिनि राधायाः राधायाः
राधायाः दीर्घ आस्ति राधायाः जल्दी जल्दी बोलने से डोंट मिस द दीर्घ नहीं तो वो स्पेलिंग में आपको कष्ट देगा ना केवल एकम वदामि हाँ करो तो अन्य Everybody did? Akaranta?
Yes, Bhagini.
Papa ji, aapne kaun sa yaad kiya tha Akaranta mein? Striling rupam.
Yaad.
Aapne jaise Ram ko kiya tha Pumling mein, Striling mein kaun sa kiya tha yaad? Rama? भूल गए सीता
किया
हाँ याद है आपको जितना याद है बोलिए
सीता ये हसी गावड़ हो गया वो बीच में रिदम छूटी ना
दीपा अपनी चार्ट दिखाओ पापा को दीपा अपनी चार्ट पापा को दिखाओ
इससे बोली ना सीता
हाँ रमा
सीता
सीता सीते सीता सीता सीते सीता सीतां सीते सीता सीतया सीताभ्यां सीताभिः सीतायै सीताभ्यां सीताभ्यः सीताया सीताभ्यां सीताभ्यः सीतायाः सीतयोः सीताणां सीतायां सीतयोः सीतासु
सीतानां
हे हे सीते हे सीते हे सीता
उत्तम उत्तम अभी इतने सालों में 80 साल बाद देखने के बाद अभी तुरंत वो बैठ जाएगा पिछले स्मृति इज अमेजिंग उत्तमम अस्तु अधुना किम कुर्मः नपुंसकलिंग रूपम किम हाँ अन्य कोऽपि आरंभम
कुर्मः भगिनी हाँ ईकारांत स्त्रीलिंगम भी करेंगे
हाँ हाँ ईकारांत भी करेंगे वेरी गुड उत्तमम हाँ दीर्घ वा ह्रस्व प्रथम तो ह्रस्व इकारांत हाँ करोतु कॉपी हाँ भवती एव शुरू करोतु भगिनी शिवरूपा भगिनी करोतु मती
मती
हाँ करोतु
मती हाँ आम भगिनी ईकृष्व ईकारान्त स्त्रीलिङ्गमति शब्दवत् मतिः मती मताय मतयः हे मते हे मति हे मतयः मती मती मतीः मत्या मतिभ्यां मतीभिः मत्यै भगिनी
एकवारं शृणोतु भगिनी इकारान्तः स्त्रीलिङ्गः मतिशब्दः मतिः मती मतयः हे मते हे मती हे मतयः मतिं मती मतीः सो दिस् यू हैव टु रिमेम्बर् तो लम्बा उसको बोलेंगे नहीं तो वो लम्बा याद भी नहीं रहेगा मतिः मती मतयः हे मते हे मती मतयः मतिं मती मतीः मत्या मतिभ्या मतिभिः चतुर्थी मत्यै मतये ये दोनों बोलो मत्यै मतये मतिभ्या मतिभ्यः मत्या मतेः मतिभ्या मतिभ्यः मत्याः मतेः मत्योः मतीनां मत्यां मतौ मत्योः मतिषु वदतु भगिनि
मतिः मती मतयः हे मते हे मती हे मतयः मतीं मती मतीः मत्या मतीभ्यां मतीभिः मत्यै मतये मतीभ्यां मतिभ्यः मत्याः मते मतीभ्यां मतीभ्यः मत्यः मते मत्योः
न न षष्ठी पुनः वदतु मत्याः मतेः
मत्याः मतेः मतीभ्यां मतीभ्यः मत्याः मते मत्ययोः मतीनां मत्यां मतौ मत्योः मतीषु
अभी नया है किंचित क्लिष्ट जाता किंतु वारं वारं कृत्वा सुलभं भवति अन्य कोऽपि करोतु
इकारान्त स्त्रीलिंग श्रुति शब्दः श्रुतिः श्रुति श्रुतयः हे श्रुते हे श्रुति हे श्रुतयः श्रुतिं श्रुति श्रुतिः श्रुतया श्रुतिभ्यां श्रुतिभिः श्रुतयै श्रुतये श्रुतिभ्यां श्रुतिभ्यः श्रुतयाः श्रुतेः श्रुतिभ्यां श्रुतिभ्यः श्रुतयाः श्रुतेः श्रुतयोः श्रुतीणां श्रुत्यां
षष्ठी बहुवचन श्रुति
श्रुतीणां
नकार न अस्ति भगिनी श्रुत सा वर्ग आयाति
सा वर्ग ओके श्रुतीनां श्रुतीनां श्रुत्यां श्रुत्यौ श्रुत्योः श्रुति श्रुतिषु
दीर्घ वा ह्रस्व वा भेद करोतु सर्वे दट मेक्स ऑल द डिफरेंस सी षष्ठी बहुवचन दीर्घ मति ह्रस्व अस्ति किंतु षष्ठी बहुवचन तो दीर्घ अस्ति अपि च किम् द्विवचने प्रथमा द्वितीय दीर्घत्वं भवति अपि द्वितीय विभक्ति बहुवचन इत्युक्ते किं मतिः बहुवचन द्वितीय विभक्ति रूपं तु दीर्घत्वं भवति अन्य सर्वे ह्रस्व
रुचिः इकारान्तः स्त्रीलिङ्गः रुचिः शब्दः रुचिः रुचि रुचयः रुचिं रुचि रुचिः रुच्या रुचिभ्यां रुचिभिः रुच्यै रुचये रुचिभ्यां रुचिभ्यः रुच्याः रुचेः रुचिभ्यां रुचिभ्यः रुच्याः रुचेः रुचि रुच्योः रुचीनां रुच्यां रुच्यैः रुच्योः रुचिषु हे रुचे हे रुचि हे रुचयः
ईकारान्त स्त्रीलिङ्ग बुद्धि शब्दः बुद्धिः बुद्धि बुद्धयः बुद्धिं बुद्धि बुद्धिः बुद्ध्या बुद्धिभ्यां बुद्धिभिः बुद्ध्यै बुद्धये बुद्धिभ्यां बुद्धिभ्यः बुद्ध्याः बुद्धे बुद्धिभ्यां बुद्धिभ्यः बुद्ध्याः बुद्धेः बुद्ध्योः बुद्धिनां बुद्ध्यां बुद्धौ बुद्धयोः बुद्धिषु हे बुद्धे हे बुद्धि हे बुद्ध्यः
उत्तमम् उत्तमम् पापा जी बोलेंगे नहीं सुना पापा जी को नहीं बोलना
शुरू से यहाँ से हाँ यहाँ से बोलिए
मति मति मतयः हे मते हे मति हे मतयः मतिम मति मतीः मत्या मतिभ्यां मतिभिः मत्यै मतये मतिभ्यां मतिभ्यः मत्याः मतेः मतिभ्यां मतिभ्यः मत्याः मतेः मत्योः मतीनां मत्यां मतौ मत्योः मतिषु
उत्तमम् अस्तु दीर्घ ईकारान्त अपि अस्ति ईकारान्तः स्त्रीलिङ्गः नदी शब्दः नदी नद्यौ नद्यः हे नदी हे नद्यौ हे नद्यः नदीं नद्यौ नदीः नद्या नदीभ्यां नदीभिः नद्यै नदीभ्यां नदीभ्यः नद्याः नदीभ्यां नदीभ्यः नद्या नद्योः नदीनां नद्यां नद्योः नदीषु वदतु
गौर् ईकारान्त स्त्रीलिङ्ग गौरी शब्दः गौरी गौरी गौरौ गौर्यः हे गौरी हे गौर्यौ हे गौर्यः हे गौरीं गौर्यौ गौरीः गौर्या गौरीभ्यां गौरीभिः गौर्यै गौरीभ्यां गौरीभ्यः गौर्यः गौरीभ्यां गौरीभ्यः
पञ्चमी एकवचन गौर्या
गौर्याः गौर्याः गौरीभ्यां गौरीभ्यः गौर्याः गौरोः गौर्योः गौरीराम् गौर्यां गौरोः गौर्योः गौरीषु
ईकारान्तस्त्रीलिङ्गगौ न देवी शब्दः देवी देव्यौ देव्यः हे देवी हे देव्यौ हे देव्यः देवीं देव्यौ देवीः देव्या देवीभ्यां देवीभ्यः देव्यै देवीभ्यां देवीभ्यः देव्याः देवीभ्यां देवीभ्यः देव्याः देव्योः देवीनां देवीनां देव्यां देव्योः देवीषु
ईकारान्तः स्त्रीलिङ्गः वाणीशब्दः वाणी वाण्यै वाण्यः वाणीं वाण्यै
वाण्यौ
वाणी वाण्यौ वाण्यः वाणीं वाण्यौ वाणीः वाण्या वाणीभ्यां वाणीभिः वाण्यै वाणीभ्यां वाणीभ्यः वाण्याः वाणीभ्यां वाणीभ्यः वाण्याः वाण्योः वाणीनां वाण्यां वाण्योः वाणीषु
उत्तमं सो अन्य ते तु सर्वे सुलभमेव वारं वारं कृत्वा सुलभमेव अन्य अन्यरीत्या अपि वयं कुर्मः तत् किं नदी नदीं नद्या नद्यै नद्याः नद्याः नद्यां सर्वाणि एकवचनरूपाणि वदामः नदी नदीं नद्या नद्यै नद्याः नद्याः नद्याम् इत्युक्ते किं द्वितीयवचन द्वितीयविभक्ति एकवचन सर्वं अन्ते अस्ति अधिकतर अस्ति नदीं तृतीया आ अस्ति या इत्युक्ते किं या अत्र या आयाति या यै याः याः यां पश्यतु एकवारं तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी किम् अन्ते किं या यै याः याः याम् अपि च मतिशब्दः पश्यतु या यै याः याः याम् अपि च रमाशब्दः वद पश्यतु या यै याः याः याम् सुलभमेव द्वितीयविभक्ति एकवचनरूपं तु अन्ते मकार अस्ति रमां मतिं नदीं तदनन्तरम् एकवचनरूपाणि या यै यः यः याम् अपि च द्वितीयवचने प्रथमद्वितीय तु समानेव रमे रमे मती मती नदी नदी समानेव अपि च तृतीयचतुर्थी पञ्चमीविभक्तिरूपाणि अपि समानेव रमाभ्यां 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 मतीभ्यां मतिभ्यां मतिभ्यां नदीभ्यां 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 सुलभमेव सर्वं तदनन्तरं षष्ठी सप्तमी किम् रमयोः रमयोः, अत्र मत्योः मत्योः, नद्योः नद्योः इत्युक्ते किं, ह्रस्व इ दीर्घ इ अस्ति चेत् यकार आयाति. किमर्थम् आयाति? सन्धि, सन्धि कृत्वा य आयाति. किन्तु इकारान्त नास्ति चेत् रमयोः रमयोः. अपि च बहुवचनरूपाणि तत्तु सुलभमेव, रमाः रमाः सुलभं. किन्तु ईदीर्घ वा ह्रस्व वा अस्ति चेत् किञ्चित् भिन्न जाता. इत्युक्ते किं, मतयः, मतयः इत्युक्ते किम्, एकं सन्धि आयाति, मतयः, नद्यः. किन्तु द्वितीयविभक्ति बहुवचनरूपाणि सर्वाणि दीर्घ दीर्घत्वं भवति. मतीः ह्रस्व ईकारान्त अपि, मतीः नदीः समानेव. एकं मनसि स्थापयतु, ई अस्ति चेत् दीर्घत्वं भवति, ऊ अस्ति चेत् अपि दीर्घत्वं भवति. धेनु ह्रस्व उकारान्त, द्वितीयविभक्ति बहुवचन धेनुः, वधूः. ई उ अस्ति चेत् दीर्घत्वं भवति, यकार आयाति. मनसि एकवारं स्थापयतु. तदनन्तरं किम्, इकारान्त अस्ति चेत् भिः, भिः भ्यः भ्यः नाम इति, भिः भ्यः भ्यः तृतीयपञ्चमी तृतीयचतुर्थी पञ्चमी भिः भ्यः भ्यः, रमाभिः रमाभ्यः रमाभ्यः, मतिभिः मतिभ्यः मतिभ्यः, नदीभिः नदीभ्यः नदीभ्यः. षष्ठी तु यदि ईकारान्त ह्रस्व वा दीर्घ वा सर्वदा दीर्घत्वम् एव तिष्ठति. मतीनां नदीनां रमानां अपि सप्तमी सर्वदा षु एव, मूर्धन्यषु.
भगिनी,
आम भगिनी,
भगिनी सिर्फ इधर अकारांत स्त्रीलिंग अस्ति चेत् सप्तमी में सु आएगा ना, बाकी का सु ही आएगा.
बहुवचनम्,
बहुवचनम्.
एंड फॉर इकारांत एंड ईकारांत शु, नदीशु मतिशु.
And it's also same for the pullinga akaranta. Rameshu.
Only the strilinga akaranta sitet shu
aaya.
But akara akaranta and akaranta strilinga pullinga, it is different for bahuvachanam. Rameshu and Ramasu. Kita Bhagini has left the meeting, no?
I think
some problem might have arisen.
Yeah. Should we
so
continue?
Many things to remember.
Yeah.
Vibhakti forms are like.
Yeah.
Oh. But it is interesting, yeah. And it's very interesting. And Bhagini has really mentioned us easy way of remembering,
yeah,
few words, like,
yeah,
you know. How are they?
किञ्चित्
Bullying each other.
Tips milati.
Actually, if it is like how Bhagini sings, it will be easier on our minds, you know. When we used to be in school, my Tamil teacher used to do that.
Mm-hmm.
Always singing. Yeah, singing, so you will remember well.
Yes. Mm. By listening only, so many things we can get to know.
Yeah.
Shall we continue with Ikaranta yes. Istrilinga Shri Shabd? Next
slide.
नहीं अभी ईकारांत हो गया ना आप लोग नहीं बताए
तो उकारांत विच वन नेक्स्ट इज
नो नपुंसकलिंगम ट्राई करेंगे एक नहीं तो
और उकारांत स्त्रीलिंग धेनु शब्द
ओके ओके भगिनी गो अहेड
उकारांत स्त्रीलिंग धेनु शब्द धेनुः धेनु धेनवः धेनुम धेनु धेनुः धेनवा धेनुभ्याम धेनुभिः धेनवै धेनवे धेनुभ्याम धेनुभ्यः धेनवाः धेनोः धेनुभ्याम धेनुभ्यः धेनवाः धेनोः धेनवोः धेनुनाम धेनवाम धेनौ धेनवोः धेनेषु हे धेनो हे धेनु हे धेनवः
धेनुषु धेनुषु
धेनुषु धेनुषु
धेनूनां दीर्घत्वं भवति तत्र
धेनूनां धेनूनां धेनवाः धेनोः धेनवोः धेनूनां धेनवां धेनौ
न तु हलन्त अस्ति अत्र
धेन्वां धेनौ धेनवौ धेनवोः धेनवोः धेनुषु
वारं वारं धेन्वाः धेनोः धेन्वाः धेनोः धेन्वाः धेनोः इति धेन्वोः 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 धेनूनां धेनुषु धेनूनां धेनुषु तर्हि अहं तदा अहं वदामि एकवारं धेनुः धेनुं धेन्वा धेन्वै धेन्वे न धेन्वै धेनवे धेन्वै धेनवे धेन्वै धेनवे धेन्वाः धेनोः धेन्वाः धेनोः धेन्वां धेनौ धेन्वां धेनौ धेन्वां धेनौ वारं वारम् उक्त्वा सर्वम् आयाति हा उत्तमम् अग्रिमम्
उकारान्त स्त्रीलिङ्गः शब्दः तनुः 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 तनु तन्वः तनुं तनु तनूः तन्वा तनुभ्यां तनुभिः तन्वै तनवे तनुभ्यां तनुभ्यः तन्वाः तनोः तनुभ्यां तनुभ्यः तन्वाः तनोः तन्वोः तनूनां तनूवां तन्यौ तन्वोः तनुषु
सप्तमी पुनः वदतु
तन्वां तन्यो तन्यै तन्वां तन्यै तनै
तनौ औ
तन्वां तनौ तन्वोः तनुषु लिटिल् कन्फ्यूसिङ्ग् भगिनि
हा कन्फ्यूसिङ्ग् न ऐ नो ऐ हेव् गोन् थ्रू आल् द स्टेजेस् इन् दट् आर् हेपनिङ्ग् इन् योर् हेड् ऐ हेव् डन् इट्
बट् योर् टिप् वास् रियलि वर्किङ्ग् भगिनि वेन् वी आर् सिङ्गिङ्ग् इन् दट् वे आटोमेटिकलि द वर्ड्स् आर् आल्सो वी आर् एबल् टु
That is the tradition. If you go to Sanskrit school, everybody should be singing. You will hear, you walk in the hallways, they're all singing. And when you sing a song, everything comes.
Bagini. How soothing, Bagini, when you are doing it, it is very nice.
Yes, Bagini, go ahead.
No, I'm saying I had actually once upon a time recorded each one and sent one just for people to listen again and again, you know. Now I don't know
yes,
where
Yes, Bagini, we have it in the group, Bagini. Ramaha Shabdaha, we have it.
Oh, it is Ramaha, there. Then listen again.
Ramaha, yeah, it's there, Bagini, in the group.
Okay,
yeah.
Okay.
Bagini, by this tune, I remember that Shiva Rudra Kavacham, like... Rudra.
Oh, say. Vadatu, Bhagini, Vadatu.
And Bhagini, we can, like, it says the same tune only.
Meanwhile, somebody else can say while she is looking.
Yeah. Okay, Bhagini. Vadatu. ओम निधनपतये नमः ओम निधनपतांतिकाय नमः ओम मूर्ध्वाय नमः ओम मूर्ध्वलिंगाय नमः ओम हिरण्याय नमः ओम हिरण्यलिंगाय नमः ओम सुवर्णाय नमः ओम सुवर्णलिंगाय नमः ओम दिव्याय नमः ओम दिव्यलिंगाय नमः ओम भवाय नमः ओम भवलिंगाय नमः ओम सर्वाय नमः ओम सर्वलिंगाय नमः ओम शिवाय नमः ओम शिवलिंगाय नमः ओम ज्वालाय नमः ओम ज्वाललिंगाय नमः ओम आत्माय नमः ओम आत्मलिंगाय नमः ओम परवलिंगाय नमः एतत् सोमस्य सूर्यस्य सर्वलिंगां स्थापयति पाणि मन्त्रं पवित्रम् संजो जातं प्रपद्यामि संजो जाताय वै नमो नमः भवे भवे दाति भवे भवस्वभाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमदनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्यो दघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशान सर्वविद्यानाम् ईश्वर सर्वभूतानां ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्म शिवो मे अस्तु सदाशिवो
सुन्दरं सुन्दरं भगिनि सुन्दरं
ये इसको बोलते हैं रुद्र नमकम चमकम ऐसा बोलते हैं ना भगिनि
हां शेयर इट भगिनि यू साउंड योर सिंगिंग एंड आल्सो द लिरिक द मंत्र भगिनि पुट इट इन आवर पोस्ट
शेयर शिवरूपा भगिनि सिंग वेल
वेरी नाइस
विद योर रिकॉर्डिंग with your voice recording bagini put it
sure bagini dhanyawad bagini
we should all of us should share because yes, it's bagini. Not that I know everything I know actually yes. way the more I know the more I realize how little I know so all yes, of us bagini. Put our brains together and we learn together only
yes
bagini. I'm also so I don't know all the rupanis also I have to myself
so many chants are there bagini like now navaratri is coming ya bhute ya devi sarva bhute shu so that is very very beautiful
rudram is also bagini even rudram shri rudram is also yes. sounds like this only
yes.
you know that one bagini sudha bagini
only one or two stanzas that's it bagini
learn all of it and then you recite to us.
Yeah,
like we all learn. You teach us
it's
all
like
of
this.
Everybody should teach. On Tuesday, Tuesday classes, let us start doing that so that we are all learning new ones. And what we can do is post it on the screen
group
when we are singing.
Yes,
group I know a couple of stanzas. I'll try one of the stanzas, Bagini.
Yes.
ॐ नमस्ते रुद्रमन्यव उतोत इतवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषुः शिवतमा शिवं बभूवते धनुः शिवासरव्या यातवा तयो न रुद्रो मृळया याते रुद्रशिवा तनूरघोरपापकाशिनी तया नमस्तवा सन्तमया गिरीशां चाकसीः. Like that it goes, Bhagini, it is very
yes,
big, actually.
Bhagini, actually, whatever you sang just now, right? So, it is whatever I sang, after that it will come. So, just now I sang.
Okay, is it Astotram, Bhagini?
Sang very what? Well, very beautifully sung, Shailja, yeah, Bhagini.
Yeah, it is called Namaka.
This Rudram itself is like that, Bhagini. This Rudram itself is like that, actually, it is.
Yeah, it's a Namakam, Bhagini. Namakam, whatever you sang, right? So, that is called Namakam. So
no, Bhagini, Namakam Chamakam is different and Sri Rudram is different, Bhagini. I think Sri Rudram is completely, it sounds like how Vedas will we chant, no, like that, Bhagini. It's
very... Yes, Bhagini, Rudra Namakam Chamakam also the same way, Vedas, how in so many lines, whatever is chanted, right, that is there in Namakam of Rudra. When we are doing Abhisheka, we'll do Rudram Chamak, Rudrabhishekam for Shiva. We'll offer all these prayers to God while doing Abhishekam.
Okay, this is very big, Bhagini, actually. This, yes, there are Bhagini. So many changes.
Yeah, so Pradama Vanukam, Vitiya Vanukam, Tritiya Vanukam, there are so many, up to 16 or 17, like that.
Anuvakas, no? Yes, Anuvakas, there are so many, 14 Anuvakas, I think, no? And each Anuvaka also has so many changes of... strangers, actually.
Yes, Bhagini. Yeah, so many things are there, Bhagini. Whatever I read, that is Shivopasana mantra, and whatever you did, that is like Sri Rudram or Namakam. Yeah.
So many things to learn. Life is short.
Very good. So, it's... some more practice you want to do? Hrusva Ukaranta? Sarvam Krita Vativa?
Ukaranta Sirf Gita Bhagini did.
Karotu. Ekavaram Sarvam.
Yeah, I'll do for Ishupu Bhagini. Ishupu. Ukaranta Srilinga Ishupu Shabdaha Ishupu Ishupu Ishu, Ishu, Ishuvaha, He
Ishu.
Ishuvaha. Ishuvaha. He Ishu, He Ishu, He Ishuvaha.
He Isho, He Isho, He Ishu, He Ishavaha.
He Isho, He Ishu, He Ishuvaha. Ishu, Ishu. Ishuhu, Ishuvaha, Ishubhyam, Ishu.
No, Ishva. Ishva.
Ishva. Ishvaha. Right, Bhagini?
No, Dhenva.
Tritiya.
Dhenva, Ishva.
Ishva, Ishve, Ishu.
Ishubhyam.
Ishubhyam. Ishubhyam. Ishubhihi.
ఇషుభ్యాం ఇషుభ్యః
ఇష్వాహ ఇష్వోహో ఇష్వాహ ఇషోహో ఇషోభ్యాం ఇషుభ్యః ఇష్వాహ ఇషోహో ఇషోనాం ఇష్వో
किञ्चित् क्लिष्ट जाता शकार षष्टि बहुवचन तु ऋणत्वं भवति इषूणाम् करोतु
उकारान्त स्त्रीलिङ्ग रज्जु शब्दः रज्जुः रज्जु रजवः रज्जुं रज्जुं रज्जु रज्जुः रजव रजवा रज्जुभ्य रज्वा
डबल डबल ज हलन्त रज्ज्वा
रज्ज्वा रज्ज्वा रज्जुभ्यां रज्जुभिः रज्ज्वै रज्ज्वै रज्ज्वे
रज्जव रज्जवे
रज्ज्वै रज्जवे रज्जुभ्यां रज्जुभ्यः रज्ज्वाः रज्ज्वोः रज्ज्वाः रजोः रज्जुभ्यां रज्जुभ्यः रज्ज्वाः रज्ज्वोः रजवोः रज्ज्वोः रज्जूनां
रज्ज्वाः रजोः
रज्ज्वाः रजोः रज्ज्वोः रज्जूनां रज्ज्वां रज्ज्वौ रज्ज्वोः रज्जुषु
उत्तमं तत्तु क्लिष्टजाता जकारद्वित्वम् अस्ति रज्ज रज्ज इति उत्तमम् अन्य सर्वं कृत्वा वा
आं भगिनि
अस्तु अस्तु सो पुंलिङ्गरूपम् अस्तु तत्तु इकारान्त हरि एकं मुख्यम् अस्ति उकारान्त गुरु अपि प्रमुखः अस्ति हरि गुरु एकवारं एकवारं हरि करोतु अत्र इकारान्तः पुंलिङ्गः हरिशब्दः हरिः हरि हरयः हे हरे हे हरि हे हरयः हरिं हरि हरीन् हरिणा हरिभ्यां हरिभिः हरये हरिभ्यां हरिभ्यः हरे हे हरिभ्यां हरिभ्यः हरे हे हर्योः हरिणां हरौ हर्योः हरिषु करोतु
इकारान्त पुल्लिङ्ग हरिशब्द हरिः हरि हर्यः हरिं हरि हरिण
हरयः
हरिः हरि हरयः हरिं हरि हरिण हरिणा हरिभ्यां हरिभिः हरये हरिभ्यां हरिभ्यः हरेः हरिभ्यां हरिभ्यः हरेः हरयोः हरिणां हर्रौ हर्योः हरिषु हे हरे हे हरि हे हरयः
इकारान्तः पुल्लिङ्गशब्दः रविः रविः रवि रवः रवि रविम् रवयः रविः रवि रवयः रविं रवि रवीन् रविना रविभ्यां रविभिः रवये रविभ्यां रविभ्यः रवेः रविभ्यां रविभ्यः रवेः रव्योः रवीणां रव्यौ रव्यै रव्योः रविषु
इकारान्त पुंलिङ्ग कविशब्दः कविः कवी कवयः हे कवे हे कवि हे कवयः कविं कवी कवीन् कवीणा कविभ्यां कविभिः कविभिः कवये कविभ्यां कविभ्यः कवेः कविभ्यां कविभ्यः कवेः कवयोः कवयोः कव्योः 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 कवीनां कव्यौ कव्योः कविषु
ईकारान्त पुंलिङ्ग मुनिशब्दः मुनिः मुनी मुनि मुनयः
मुनयः
मुनयः हे मुने हे मुनि हे मुनयः मुनी मुनी मुनि मुनि
मुनिं
मुनि
द्वितीय मुनिं मुनिं
मुनिं मुनी मुनीन् मुनिना मुनिभ्यां मुनिभिः मुनिभ्ये मुनिभ्यां
मुनये
मुनये मुनिभ्यां मुनिभ्यः मुनेः मुनिभ्यां मुनिभ्यः मुनेः मुने हरियोः
मुन्योः
मुन्योः मुनीना मुनि मुनीनां मुञ्जौ
मुञ्जौ मुनौ
मुनौ मुञ्जोः मुनिषु मुनिषु
मुनिषु
मुनिषु
सर्वं कृतवती वा अस्तु अस्तु अधुना सुधा भगिनी उक्तवती वा
आं भगिनि
आं भगिनि
अधुना एकं वदामि मति द्वितीयरूपम् अस्ति चतुर्थी पञ्चमी षष्ठी सप्तमी ते सर्वे हरिवत् अस्ति एकवारं पश्यतु चतुर्थी एकवचनरूपं किं हरये मतये पञ्चमी किं हरेः मतेः षष्ठी हरेः मतेः सप्तमी हरौ मतौ इत्युक्ते किं यदि किमपि ह्रस्व इकारान्तशब्द अस्ति चेत् यदि वयं हरिवत् कृतवती तत्तु समीचीनमेव है ना अगर हम हरी के प्रकार में स्त्रीलिंग शब्द को भी ढाल दें तो वो ठीक ही बनेगा फॉर विच वन फॉर चतुर्थी पंचमी षष्ठी सप्तमी इति समझा So, although Shabda Manjari Itini, like a lot of tables, many, many things repeat. Patterns are very, very repetitive. Some small differences only we have to abhyasena sab sarva mayati. Astu. Astu. Anya kimapi samaya tu dvatita. विरमामः वा?
आं भगिनि.
किं सुधा भगिनी अन्तिम
एकनिमिषं भगिनि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. सर्वेषां स्वस्तिर्भवतु. सर्वेषां पूर्णं भवतु. सर्वेषां मङ्गलं भवतु. सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामया. सर्वे भद्राणि पश्यन्तु. मा कश्चित् दुःखभाग् भवेत्. ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. सर्वं कृष्णार्पणमस्तु.
उत्तमम्. अस्तु, सर्वेभ्यः नमो नमः. एकं वदामि.